इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। अद्य लोकसभा निर्वाचनस्य प्रथमचरणीय मतदानं भविष्यति। अस्मिन् चरणे 2.5% यावत् समस्त संसदीय क्षेत्राणां कृते मतदानं भविष्यति, येषु अनुसूचित जाति कृते 18, अनुसूचित जनजातीयानां कृते च 17 लोकसभासनानि आरक्षितानि सन्ति। एतानि राज्यानि उत्तरप्रदेशः, पश्चिमबंगालः, बिहारः, असमः, मध्यप्रदेशः, महाराष्ट्रः, राजस्थानः, तमिलनाडु, उत्तराखण्डः, अरुणाचलप्रदेशः, मणिपुरः, मेघालयः च सन्ति। निर्वाचनरणस्य प्रमुख प्रत्याशिषु भाजपेति दलस्य वरिष्ठनेता नितिनगडकरी, सर्वानन्द सोनोवालः, किरण रिजिजु, डॉ जितेन्द्रसिंहः, संजीव बाल्यानेन सहैव तमिल साई सुन्दरराजनः, जतिन प्रसादः च सन्ति। कांग्रेसनेतृषु गौरव गोगोई, कार्ति चिदम्बरमः, नकुलनाथः, तत्रैव डीएमके दलस्य दयानिधि मारनः च प्रमुख प्रत्याशिषु सम्मिलिताः सन्ति। येषां राजनीतिक भाग्यम् अद्य ईवीएम इत्याख्यतन्त्रस्य आभ्यन्तरे मुद्रितं भविष्यति। अस्मिन् प्रथमचरणीय मतदाने 25.67% यावत् अभ्यर्थिनः निर्वाचनरणे सन्ति। मतदानम् अद्य प्रातः 7 आरप्स्यते। अस्मिन् चरणे 63,16,00,000 यावत् मतदातृणां कृते 63,00,000 यावत् मतदानकेन्द्राणां निर्माणम् अभवत्। अस्मिन् निर्वाचने प्रायः 36,00,000 यावत् मतदातारः स्वीय मताधिकारस्य प्रथमं वारं प्रयोगं करिष्यन्ति। महाराष्ट्रे अद्य 50 मतदानं भविष्यति। डीआरडीओ रक्षा अनुसंधान विकास संघटनेन ह्यः स्वदेशीय प्रौद्योगिक्या विनिर्मितस्य क्रूज मिसाइल इत्यस्य सफल उड्डयन परीक्षणं कृतम्। ओडिशा तटस्य समीपे चण्डीपुर नगरस्य एकीकृत परीक्षण केन्द्रात् अस्य क्षेपणास्त्रस्य परीक्षणं जातम्। रक्षामन्त्रालयस्यानुसारि भारतीय वायुसेनायाः SU-30MKI विमानेन अपि अस्य क्षेपणास्त्रस्य निरीक्षणं जातम्। रक्षामन्त्रिणा राजनाथसिंहेन क्षेपणास्त्रस्य सफल विमान परीक्षणाय डीआरडीओ इत्यस्य अभिनन्दनं कृतम्। भारतीय ऋतु विज्ञान विभागेन आगामि 3 दिवसेषु ओडिशायां, तमिलनाडुराज्ये, तटीयान्ध्र प्रदेशे, पश्चिम बंगाले च प्रगाढ़ उष्ण लहर्याः प्रभावो भविष्यतीति प्रख्यापितम्। एतेषु क्षेत्रेषु तापमानं 40°C मितादपि अधिकस्य संभावना वर्तते। ऋतुविज्ञान विभागेन झारखण्ड, उत्तरी कोंकण, सौराष्ट्र, मध्य महाराष्ट्र, तेलंगाना, तमिलनाडु, पुडुचेरी इत्यादिषु स्थलेष्वापि उष्णलहर्याः प्रभावः संभावितः। आकाशवाण्याः वार्ताहरैः सह संवादे ऋतुविज्ञान विभागस्य वरिष्ठ वैज्ञानिकः आरके जैनामणिः जनान् एतस्मिन् सन्दर्भे अवधानतायै सम्प्रार्थितवान्। तेनोदीरितं यत् उत्तरभारते उष्णलहर्याः अधिको प्रभावः न भविष्यति। दिल्ली, राजस्थान, पंजाब, हरियाणादिषु सामान्य वृष्टेः संभावना वर्तते। हिमाचल प्रदेशे अतिवृष्टिः संभाव्यते। आईपीएल क्रिकेट क्रीडामालिकायां मुंबई इंडियंस दलेन पंजाब किंग्स दलं ह्यः चण्डीगढ़ नगरे 9 पराजितम्। अद्यतने द्वन्द्वे लखनऊ एकाना क्रिकेट क्रीडांगणे लखनऊ सुपर जॉइंट्स दलं चेन्नई सुपर किंग्स दलेन स्पर्धिष्यते। इयं स्पर्धा सायं 7:30 आरप्स्यते। इति वार्ताः।